विश्वेश्वर नमस्तुभ्यं विश्वात्मा विश्वकर्मकृत् विश्वभुग् विश्वमायुस्त्वं विश्वक्रीडारति प्रभुः शान्तात्मने तुभ्यं नमो गुह्यतमाय च अचिन्त्याय प्रमेयाय अनादिनिधनाय च यस्मिन् सर्वे यतः सर्वे यः सर्वे सर्वतश्च यः यश्च सर्वमयो देवः तस्मै सर्वात्मने नमः यत एतच्चिदात्मकं पुरुषायादिबीजाय परेशायाभिधीमहि तस्मै नमः परेशाय ब्रह्मणे नन्तशक्तये अरूपायोरुरूपाय नमः आश्चर्यकर्मणि शान्ताय घोराय गूढाय गुणधर्मिणे निर्विशेषाय साम्याय नमो ज्ञानघनाय च क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे पुरुषायात्ममूलाय प्रकृतये नमः
ॐ सर्वदेवेभ्यो नमः ॐ सर्वदेवेभ्यो
नमो नमस्ते अखिल कारणाय निष्कारणायाद्भुत कारणाय सर्वागमाम्नाय महार्णवाय नमोपवर्गाय परायणाय सते सर्वलोकाश्रयाय नमस्ते चिते विश्वरूपात्मकाय नमोऽद्वैततत्त्वाय मुक्तिप्रदाय नमो ब्रह्मणे व्यापिने निर्गुणाय
मह्यं नमो मह्यं तुभ्यं मह्यं नमो नमः अहं त्वं त्वमहं सर्वं जगदेकचराचरम् मदादिकमिदं सर्वं माया विलसितं तव अध्यस्तं त्वयि विश्वात्मन् त्वयैव परिणामितम्
गुणातीत गुणाधार त्रिगुणात्मन् नमोस्तुते नमो चिन्त्यमहिम्नेते चिद्रूपाय नमो नमः
नमो देवाधिदेवाय देवदेवाय ते नमः दिव्यादिव्यस्वरूपाय दिव्यरूपाय ते नमः जरामृत्युविहीनाय मृत्युरूपाय ते नमः ज्वलदग्निस्वरूपाय मृत्योरपि च मृत्यवे
प्रपन्नमृत्युनाशाय सहजानन्दरूपिणे भक्तप्रियाय जगता मात्रे पित्रे नमो नमः
प्रपन्नार्तिनाशाय नित्योद्योगिन् नमोऽस्तुते नमो नमस्ते दीनानां सहज सिंधवे गुणातीत गुणाधार गुणबीज गुणात्मक गुणीश गुणिनां बीज गुणिनां गुरवे नमः
यन्न जानन्ति श्रुतयो यन्न जानन्ति सूरयः तन्नमामि जगद्धेतुं मायिनं तं अमायिनम्
यो देवस्त्यक्तसङ्गानां शान्तानां करुणार्णवः करोति आत्मना सङ्गम् तं वन्दे सङ्गवर्जितम् नमो विश्वप्रबोधाय नमो भ्राजिष्णुजिष्णवे ज्योतिषे च नमस्तुभ्यं ज्ञानार्थाय नमो नमः
अग्रतश्च नमस्तुभ्यं पृष्ठतश्च सदा पार्श्वतश्च नमस्तुभ्यं नमस्ते चास्तु सर्वदा